रत्नैः कल्पितमासनम् हिमजलैः स्नानं च दिव्याम्बरम् नानारत्नविभूषितम् मृगमदामोदाङ्कितम् चन्दनम् जातीचम्पकबिल्वपत्ररचितम् पुष्पम् च धूपम् तथा Thank you.